अपप्राज इन्द्रविश्वाम् अमित्रानपापा च अभिभूतेऽनुदस्वा अपोदे च अपशोराधरा च उरौ यथा तपशर्मन्मदेम कुमिदङ्गजपमन्त जपञ्चिद्यथा दान्त्यनुपूर्वम् विजोज इहे है एषाम् गृणहि भोजना निजे बर्हिषो नमा वृक्तिन्न जग्मः न हि स्थोर्यरुदुधा जातमस्ति नो दश्रवो विविदे सङ्गमेष गव्यन्त इन्द्रम् सख्याज विप्रा अश्वाजन्तो वृषणम् भाजयन्तः युवम् सुरामश्विनानमुचापासुरे स च विपिपानाशुभस्पति इन्द्रम् कर्म स्वावतम् पुत्रमिव पितरा अश्विनोभेन्द्रावधः काव्यैर्दंसनाभिः यत्सुरामम् व्यपि पश्यतेभिः सरस्वते त्वामघवन्नभिष्णक इन्द्रः सुत्रामा स्ववाम् अवोभिः सुमृळीको भवतु विश्ववेदाः बाधतान् देशो अभयम् कृणोतु सुवीर्यस्य पदजस्याम तस्य भजम् सुमतौ यज्ञजस्यापि भद्रेऽसौ मनसे स्याम स सुत्रामा स्ववाम् इन्द्रो अस्मे आराच्यद्वेषः सनुतर्युजोतु